अथ तो रुद्रस्नानार्चनाभिषेकविधिं व्याख्यास्यामः। आदित एव तीर्थे स्नात्वा उदेत्य शुचिः प्रयतो ब्रह्मचारी शुक्लवासा देवाभिमुख स्थित्वा आत्मनि देवताः स्थापये। प्रजनने ब्रह्मा तिष्ठतु पादयोर्विष्णुस्तिष्ठतु हस्तयोर्हरस्तिष्ठतु बाह्योरिन्द्रस्तिष्ठतु जठरे अग्निस्तिष्ठतु हृदये शिवस्तिष्ठतु कण्ठे बसवस्तिष्ठन्तु वक्त्रे सरस्वती तिष्ठतु नासिकयोर्वायुस्तिष्ठतु नयनयोश्चन्द्रादित्यौ तिष्ठेताम् कर्णयोरश्विनौ तिष्ठेताम् ललाटे रुद्रास्तिष्ठन्तु मूर्ध्न्यादित्यास्तिष्ठन्तु शिरसि महादेवस्तिष्ठतु शिखायां वामदेवस्तिष्ठतु पृष्ठे पिनाकी तिष्ठतु पुरतशूली तिष्ठतु पार्श्वयो शिवा शङ्करौ तिष्ठेतां सर्वतो वायुस्तिष्ठतु ततो बहिः सर्वतोऽग्निर्ज्वालामाला परिवृतस्तिष्ठतु सर्वेष्वङ्गेषु सर्वा देवता यथा स्थानं तिष्ठन्तु। अहमृते अमृतं ब्रह्मणि वायुर्मे प्राणे श्रुतः प्राणो हृदये हृदयं मयि अहमृते अमृतं ब्रह्मणि। सूर्यो मे चक्षुषि श्रुतः चक्षुर्हृदये हृदयं मयि अहमृते अमृतं ब्रह्मणि। चन्द्रमा मे मनसि श्रुतः मनो हृदये हृदयं मयि अहमृते अमृतं ब्रह्मणि। दिशो मे श्रोत्रे श्रुताः श्रोत्रगुं हृदये हृदयं मयि अहमृते अमृतं ब्रह्मणि। आपो मे रेतसि श्रुताः रेतो हृदये हृदयं मयि अहमृते अमृतं ब्रह्मणि। पृथिवी मे शरीरे श्रुताः शरीरगु हृदये हृदयं मयि अहमृते अमृतं ब्रह्मणि। ओषधि वनस्पतयो मे लोमसु श्रुताः लोमानि हृदये हृदयं मयि अहमृते अमृतं ब्रह्मणि। इन्द्रो मे बले श्रुतः बलगुं हृदये हृदयं मयि अहमृते अमृतं ब्रह्मणि। पर्जन्यो मे मूर्ध्नि श्रुतः मूर्धा हृदये हृदयं मयि अहमृते अमृतं ब्रह्मणि। ईशानो मे लक्ष्मीभिर्भवृधानः अन्तस्तिष्ठत्वव्रतस्य गोपा।